एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। नेपाल सर्वकारस्य जेएनजी युवा प्रतिनिधिनाम् च मध्ये यः दशसूत्रीय सहमति पत्रे हस्ताक्षराणि सम्पन्नानि सन्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये आयोजिते एकस्मिन् समारोहे प्रधानमन्त्रिणः सुशीला कार्किणः जेएनजी युवा प्रतिनिधिनाम् च मध्ये संविदा पत्रे हस्ताक्षरणम् सम्भूतमस्ति। समारोहम् सम्बोधयन्ती प्रधानमन्त्री कार्की संविदा पत्रस्य क्रियान्वयनेन नागरिकाणाम् अधिकाराणाम् संरक्षणाय सुशासनस्य स्थापनाय च नेपाली नागरिकैः भविष्यति अतिरिक्तम् आन्दोलनम् कर्तव्यम् न भविष्यतीति विश्वासम् व्यक्तवती। संविदायाम् गत भाद्रस्य त्रयोविंश चतुर्विंश दिवसयोः आन्दोलनाय जनान्दोलनस्य मान्यता प्रदत्तास्ति। देशे व्याप्तस्य भ्रष्टाचारस्य कुशासनस्य दण्डहीनतायाः भेदभावस्य बहिष्करणस्य आर्थिक सामाजिक समानतायाः अन्यायस्य च संरचनात्मक कारणैः सृष्टस्य द्वन्द्वस्य यथासमयम् सम्बोधनाभावेन उत्पन्नायाः वितृष्णायाः नैराश्यस्य च कारणेन गत भाद्रस्य त्रयोविंशे चतुर्विंशे च दिवसयोः जेएनजी युवसन्ततेः आन्दोलनम् सम्भूतम् आसीदिति संविदापत्रे उल्लिखितम् वर्तते। एवमेव संविदापत्रे जनविश्वासस्य आपनस्य कारणेन प्रतिनिधिसभायाः विघटनम् विहितम्। तस्यैव आन्दोलनस्य बलेन आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्वाचनस्य घोषणा विहिता स्थिति च उल्लिखितम् वर्तते। एवमेव च संविधानस्य संशोधनाय निर्वाचन प्रणाल्या सुधाराय च परामर्शनम् प्रदातुम् कार्यदलम् संघटयिष्यते। राजनीतिक नियुक्तये नीतिगत निर्णये जायमानस्य भ्रष्टाचारस्य अन्ताय सार्वजनिक संस्थासु दलीयकरणस्य निरोधनाय दलीयाधारेण जायमानायाः नियुक्तेः अन्ताय च निष्पक्षमनुसन्धानम् कर्तुम् एकः उच्चस्तरीयायोगः संघटयिष्यते इति च संविदापत्रे उल्लिखितम् वर्तते। एवमेव संविदापत्रे सार्वजनिक पद धृतवद्भिः जनैः राजनीतिक दलैश्च स्वस्य नेतृणाम् नामसु सार्वजनिकम् भूमिम् सम्पदम् वित्तम् च प्रयुज्य राष्ट्रम् सञ्चालितानाम् प्रतिष्ठानानाम् कोषस्य निकायानाम् परिषदाम् केन्द्राणाम् च कार्यसम्पादनस्य अवस्थायाः आर्थिक गतिविधीनाम् च अनुसन्धानम् कृत्वा सम्बद्ध संस्थाभिः सार्वजनिक हितस्य उद्देश्यस्य च विपरीततया अवैधानिक गतिविधयः विहिताः सन्ति चेत् तथाविधानाम् निकायानाम् निरस्तीकरणम् करिष्यते, तादृश निकायानाम् सम्पदः राष्ट्रियकरणम् विधास्यते चेति संविदापत्रे उल्लिखितम् वर्तते। प्रधानमन्त्री सुशीला कार्के निगदति मानवाधिकाराणाम् महती समस्या भ्रष्टाचारो वर्तते। सप्तसप्ततितमस्य अन्तर्राष्ट्रिय मानवाधिकार दिवसस्य अवसरे ह्य ललितपुरे आयोजिते कार्यक्रमे प्रधानमन्त्री कार्की भ्रष्टाचार न केवलम् आर्थिकीय अनियमितता एव वर्तते अपितु विपन्नानाम् अशक्तानाम् च नागरिकाणाम् अवसरात् वञ्चितानाम् नागरिकाणाम् चापि अधिकारहननस्य गभीरम् मानव वाधिकारोल्लङ्घनमपि भ्रष्टाचार एव स्थिति प्रावोचत। प्रधानमन्त्री कार्की भ्रष्टाचारस्य विरूद्धे सर्वविधम् कार्यम् विधीयते इति प्रतिबद्धताम् अभिव्यज्य पारदर्शिताम् उत्तरदायिताम् च विना मानवाधिकारः सुरक्षितो न भवतीति च अगदत्। धूलीखेलावर्तिनी काष्ठमण्डप विश्वविद्यालये ह्य एकत्रिंशत्तमे दीक्षान्त समारोहे नवोत्तर शतद्वय अधिक सहस्रद्वयम् विद्यार्थिना दीक्षिताः सन्ति। तेषु सप्तदश देशानाम् षण्णवत्युत्तरैकशतम् वैदेशिका छात्राः वर्तन्ते। दीक्षान्त समारोहम् सम्बोधयन्ती ह्यः प्रधानमन्त्री विश्वविद्यालयस्य कुलपतिश्च सुशीला कार्की नेपालस्य विश्वविद्यालयस्य कुलपतिपदे प्राज्ञिकम् जनम् नियोक्तुम् गृहकार्यम् जायमानमस्ति इति उक्तवती। प्रधानमन्त्री कार्की पश्चात्तन समये प्रधानमन्त्रिणः कुलपतेः विद्यमानस्य व्यवस्थाम् परिवर्तयितुम् आवश्यकम् अस्ति इति निश्चित्य शिक्षामन्त्रिणा महावीर पुन इत्यनेन सम्बद्धानाम् निकायानाम् प्रतिनिधिभिः सह आवश्यकम् विमर्शनम् गृहकार्यम् च विद्यमानम् अस्ति इति तदवसरे असूचयत्। नागढुङ्गा मलेखु मार्गखण्डम् एक सप्ताहम् यावत् आंशिक रूपेण पिधाय मार्ग विस्तारस्य कार्याय तीव्रता प्रदातम् निर्णीतम् वर्तते। मार्गस्य कृष्णवज्रीकरणेन सह सम्भार कार्यम तीव्रगत्या सम्पादयितुम् नागढुंगा मुंगलिंग मार्गा योजनया ह्यस्तन दिवसाद आगामिनः पौषमासस्य प्रथमं दिवसं यावत् प्रतिदिनं पञ्चघण्टावधिकः काल मार्खण्डोऽयं पिधापितो वर्तते। मार्गायोजनायाः सूचनायाः अनुसारेण नागढुंगा स्थानात् पिप्लामोड स्थानं यावत् पोखरे भिरिक्षेत्रे च प्रातः सार्धदशवादनात् सार्धत्रिवादनं यावत् मार्गे गमनागमनं निषिद्धमस्ति। एनपीएल नाम्न्याम् नेपाल प्रीमियर लीगे क्रिकेट क्रीडा प्रतियोगितायां लुम्बिनी लायन्स समूह द्वितीय चरणे सम्प्राप्तोऽस्ति। कीर्तिपुरवर्तिन्यां क्रिकेट क्रीडा रंगशालायां ह्य क्रीडितायां क्रीडायां लुम्बिनी लायन्स समूहेन काष्ठमण्डौ गोर्खाजी समूह पराजितोऽस्ति। प्रथमं क्रीडित्वा काठमाण्डौ गोर्खाज समूहेन प्रदत्तं द्वादशोत्तरैकशत धावनांकानां लक्ष्यं लुम्बिनी लायन्स समूहेन षण्णां क्रीडकानां ख्यतौ 10.74 ओवरांकेषु अधिगतम् आसीत्। काठमाण्डौ गोर्खा समूहेन च 10.29 ओवरांकेषु सर्वेषां क्रीडकानां ख्यतौ 11.1 धावनांका एव अधिगता आसन्। प्रधान न्यायाधीश प्रकाशमान सिंह रावत कथयति न्यायेन विहीनानां मानवाधिकाराणां कल्पना कर्तुं न शक्यते। नेपाल बार एसोसिएशन संघस्य आयोजनायां ह्यस्तन दिवसात् जनकपुर धामनि प्रारब्धम् 150वां कार्यकारी परिषद उपवेशम् मानवाधिकार सम्बद्धाम् राष्ट्रिय गोष्ठीम् च उद्घाटयन् प्रधान न्यायाधीश रावत वर्तमान राजनीतिक परिस्थितौ मानवाधिकाराणाम् रक्षा समावयपूर्ण कार्यम् सम्भूतमस्तीत्यतः मानवाधिकाराणाम् रक्षणेन विना सुशासनस्य न्यायस्य च विषय चर्चयितुमपि न शक्यते इति प्रावोचत। संचार सूचना प्रविधि मन्त्री जगदीश खरेल सांजालिक माध्यमेन जायमानानां हिंसानाम् अन्ताय सर्वै गभीरतापूर्वकं प्रवर्तनीयमिति बलं ददाति। संचारिका गृह नेपालेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे संचार मन्त्री खरेल एवं अगदत् इति समाचारः।